गीता साधक संजीवनी पहला अध्याय श्लोक 21 से 30 तक।
वसुदेव सुतं देवं कंस चारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरु।
ऋषिकेशं तदा वाक्य मृदमाहमहीपते अलुवाच सेनयोरुभयोर्मध्ये रथं स्थापयमेत्युत यावदेतान् निरीक्षेऽहम् योद्धु कामानवस्थितान् कैर्मया सह योद्धव्य मास्मेन्द्रण समुद्य मे योत्स्यमानानवेक्षेयम् यते प्रसमागता धार्तराष्ट्रस्य दुर्बुद्धे युद्धे प्रियचिकीर्षव। सन्निवाच एवमुक्तो ऋषिकेशो तुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्माद्रोण प्रमुखत सर्वेषां च महीक्षिताम् उवाच पार्थ पश्यैतान् समवेतान् कुरु निति तत्रापश्यस्थितान् पार्थ पितृनथ पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्थितान् कृपया परयाविष्टो पिशीदन्निदमब्रवीत्। अनुवाच दृष्ट्वेमं स्वजनं कृष्ण युयोत्सं समुपस्थितम् सीदन्ति मम गात्राणि मुखं च परिशोष्यति वेपथुश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवं स्रंसते हस्तात् त्वक्षैव परिदह्यते न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः गाण्डीवं स्रंसते हस्तात् त्वक्षैव परिदह्यते न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।
वसुदेव सुतं देवं कंस चारुरमार्दनं देवकी परमा